अमरकोशे भगवतः चन्द्रस्य नामानि अब्जो जैवात्रकः सोमो ग्लौर्मृगाङ्कः कलानिधिः सोमः सूते अमृतरसमिति सोमः शूयिङ् प्राणिप्रसव इत्यस्मात् धातोः इदं पदं निष्पन्नं इत्युक्तम्। एवं सूयते इति वा सोमः नाम यः प्रतिपक्षमपि जातः भवति, यः सूते यः सूयते स एव चन्द्रः इति। एवं ग्लौः अनन्तरशब्दः ग्लौः औकारान्तपुंलिङ्गशब्दः, प्रतिमासं ग्लायति क्षयति इति ग्लौः। यथा वयं सर्वे जानीमः कृष्णपक्षे चन्द्रः क्रमशः क्षीणं प्राप्नोति, अतः प्रतिमासं नाम मासे मासे प्रतिमासं ग्लायति क्षयति इति ग्लौः। ग्ले म्ले हर्षक्षये इत्यस्माद्धातोः इदं पदं निष्पन्नं। तत्र ओकारान्तपुंलिङ्गशब्दः ग्लौः इति, प्रथमाविभक्तिः ग्लौः इति भवति। अनन्तरं मृगाङ्कः, मृगः अङ्कः यस्य सः मृगाङ्कः इति। चन्द्रे चन्द्रबिम्बे यथा वयं पश्यामः कश्चन आकारः भवति, स एव सः आकृतिः मृगः इति केषाञ्चन अभिप्रायः। एवं क्वचित् अस्माकं विज्ञानशास्त्रे अपि तथा अस्ति, अतः मृगः अङ्कः यस्य सः मृगाङ्कः, अङ्कः नाम चिह्नम्। एवं कलानिधिः, कलानां निधिः कलानिधिः, इकारान्तपुंलिङ्गशब्दः। चन्द्रः विविधकलानां निधिः इति उच्यते, अतः कलानिधिः। द्विजराजशशधरः, द्विजराजः द्विजानां नाम ब्राह्मणानां राजा द्विजराजः। एतत् सर्वमपि शास्त्रम् अनुसृत्य एव एते अर्थाः स्वीकृताः। नक्षत्रे सः क्षपाकरः, नक्षत्राणामीशः नक्षत्रे सः। साहित्ये अपि यथा वयं पश्यामः चेत् नक्षत्राणामधिपतिः चन्द्रः इति तत्र वर्णनं भवति, नक्षत्रदेवताः भगवतः चन्द्रस्य पत्न्यः इति। उडुराजः इत्यपि उच्यते चन्द्रः। एवं क्षपा नक्षत्रे सः क्षपाकरः, क्षपा नाम रात्रिः, क्षपां करोति इति क्षपाकरः। डुक्रुयिङ् करणे इत्यस्माद्धातोः करः इति तत्र। एवं क्षपां रात्रिं करोति इति क्षपाकरः, यथा रात्रिकरः तथैव क्षपाकरः इति। अनन्तरं कला तु षोडशो भागः, अनन्तरविषयः कला तु षोडशो भागो बिम्बोस्त्रीमण्डलं त्रिषु। कला चन्द्रस्य षोडशः भागः यः सः कला स कला इत्युच्यते। कला कला इति वयं यथा वदामः, अत्र अस्मिन् सन्दर्भे कला नाम चन्द्रस्य षोडशः भागः, षोडशभागस्य कला इति नाम। एवं कल्यते सङ्ख्यायते इति कला, कलसङ्ख्याने इत्यस्माद्धातोः इदं पदं निष्पन्नं। सङ्ख्यां कर्तुं यदुपयुज्यते सैव कला, कलसङ्ख्याने इत्यस्माद्धातोः। एवं